एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तुत्री रत्नावली शर्मा। प्रधानमन्त्री केपी शर्मा ओली निगदति सर्वकारः मार्गाणां चिकित्सालयानां निर्माणस्य कार्याणि प्राथमिकतायां संस्थाप्य अग्रे वर्धमानो वर्तते। प्रतिनिधिसभायां ह्य प्रधानमन्त्रिणा सह सांसदानां प्रश्नोत्तर कार्यक्रमे प्रधानमन्त्री ओली सर्वकारेण स्वास्थ्य क्षेत्राय प्राथमिकता प्रदत्ता अस्ति, पालिकासु चिकित्सालयानां निर्माणं जनशक्तेः व्यवस्थापनाय स्रोत साधनानि प्रदीयमानानि वर्तन्ते चेति प्रावोचत्। सर्वकारेण देशाभ्यन्तरे गुणस्तरीय शिक्षायाः वृत्त्युपार्जनस्य अन्यावसराणाञ्च सर्जनं कृत्वा यूनां पलायनं रोद्धुं प्राथमिकतया कार्याणि विधीयमानानि सन्तीति प्रधानमन्त्री ओली न्यश्चिनोत्। उपवेशे सांसदेन प्रकाशज्वालाभिधेन पृष्टस्य प्रश्नस्य उत्तरे प्रधानमन्त्री ओली प्रारब्धनिर्माणानां प्रायः मार्गाणां कार्याणि अस्मिन्नेव आर्थिकवर्षे समाप्स्यन्तीत्यतः आयव्ययिकस्य निर्माणकार्ये विशेषेण ध्यानं प्रदास्यते इति अवोचत्। प्रधानमन्त्री ओली सर्वकारेण निर्धारितेन मूल्येन इक्षुन् कृत्वा कृषकेभ्यः तत्कालम् इक्षुमूल्यं प्रदातुम् इक्षुद्योगसञ्चालकाः व्यक्तयः निर्दिष्टाः सन्ति। दुग्धकृषकेभ्यः प्रदेयवित्तेष् दुग्धविकाससंस्थानेन अधुनावधि अब्जद्वयं चतुष्कोटिश्च रूप्यकाणि प्रदत्तानि सन्ति इति असूचयत्। उपवेशे सांसदेन प्रतीक्षा तिवारिणा तराई मधेस क्षेत्रस्य सन्दर्भे पृष्टस्य प्रश्नस्य सांसदेन प्रतिमा गौतमेन पृष्टस्य कृषिक्षेत्राणां सेचन सम्बद्धस्य प्रश्नस्य सांसदेन वर्षमान पुन इत्यनेन पृष्टस्य विकास निर्माण सम्बद्ध प्रश्नस्य सांसदेन डॉ प्रकाश शरण महत इत्यनेन पृष्टस्य आयव्ययिक विनियोजन सम्बद्ध प्रश्नस्य च उत्तरं प्रधानमन्त्रिणा प्रदत्तमासीत्। उपवेशे प्रभु हजारा, प्रेम बहादुर आले, प्रेम सुआलः, प्रेम बहादुर महर्जन, प्रभु सहस्यत्यादयः दश सांसदाः प्रधानमन्त्रिणे प्रश्नान् पृष्टवन्तः आसन्। प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदैः देशस्य विभिन्नेष् भागेष् दावानलस्य घटनाः वर्धमानाः सन्ति, ततः मानवीय क्षतिश्च जायमाना वर्तते चेति उक्त्वा दहन चिकित्सालयानां निर्माणाय सर्वकारस्य ध्यानाकर्षणं विहितमासीत्। उपवेशे सांसदाः चन्द्रभण्डारी, अच्युत मैनाली, बिन्दवासिनी कंसाकारः, धवलशमशेर जवरा, अब्दुल खान, शोभाग्यवाली, चित्रबहादुर केसी च सामयिक विषयेष् सर्वकारस्य ध्यानम् आकर्षयन्। प्रतिनिधिसभायाः ह्यस्तनोपवेशः गणपूरकसंख्यायाः अपूरणस्य पश्चात् आसन्न षण्णां घण्टानाम् अनन्तरं स्थगितीभूतः आसीत्। प्रतिनिधिसभायाः अपर उपवेशः अद्य दिवा एकवादने वसति। राष्ट्रियसभायाः ह्यस्तनोपवेशेन प्रतिनिधिसभायाः सांसदेन राष्ट्रिय प्रजातन्त्र दलस्य प्रमुख सचेतक पदेन ज्ञानबहादुर शाही इत्यनेन राष्ट्रियसभायाः विषये प्रदत्तायाः अभिव्यक्तेर्विषये खेदः प्रकटितोऽस्ति। उपवेशे राष्ट्रियसभायाः अध्यक्षः नारायण प्रसाद दहालः सांसदस्य शाही इत्यस्य अभिव्यक्तिं प्रति सभायाः ध्यानाकर्षणं सम्भूतमस्ति। सभया पारितस्य विधेयकस्य विषये यथार्थम् अविचार्यैव प्रदत्तां कपोलकल्पिताम् अभिव्यक्तिं प्रति सभया खेदः प्रकटितः इति उदघोषयत्। उपवेशेन विचाराणाम् अभिव्यक्तौ वस्तुस्थितिं तथ्यं प्रमाणं चापि विचारणीयानि इति उक्त्वा अभिव्यक्तिं प्रदातुं निर्दिष्टमस्ति। उपवेशस्य शून्यसमये विशेषसमये च सांसदः शाही इत्यस्य अभिव्यक्त्या राष्ट्रसभायाः मानवर्धनं जातमिति खेदप्रस्तावं पारयितुं याचना विहितवन्तः। एवमेव राष्ट्रियसभायाः ह्यस्तनोपवेशेन नवीकरणीयोर्जोदक्षता सम्बद्धम् एतद् विक्रमवर्षीयं विधेयकं पारितीकृतमस्ति। उपवेशे ऊर्जो जलस्रोत सेचन मन्त्री दीपक खड्का विधेयकमिदं प्रास्तौत्। उपवेशे शिक्षा विज्ञान प्रविधि मन्त्रिणा विद्या भट्टराय इत्यनया प्रस्तुतं राष्ट्रिय विधि विज्ञान प्रयोगशाला स्थापन संचालन सम्बद्धम् एतद् विक्रमवर्षीयं विधेयकं विचार्यतामिति उक्त्वा प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतो वर्तते। उपवेशे विकासार्थिक सम्बद्ध सुशासन समितेः सभापतिः कमला पन्तः दलित समुदायस्य अधिकारस्य विकास सम्बद्धायाः विधेय व्यवस्थायाः आवश्यकता सम्बद्धम् एतद् विक्रमवर्षीयं प्रतिवेदनं च प्रस्तुतवती। तत्पूर्वम् उपवेशस्य शून्य समये विशेष समये च सांसदः सुशासन प्रवर्धनस्य मूल्यवृद्धे नियन्त्रणस्य कृषकाणां समस्यानां समाधानस्य च विषयेषु प्रभावयुक्तं कार्यं विधातुं सर्वकारस्य ध्यानम् आकृष्टवन्तः। राष्ट्रसभायाः अपरोपवेशः श्वः प्रातः सपादैकादशवादने वस्ता। सत्तारूढानां दलानां प्रमुख सचेतक पदीयानाम् उपवेशेन सर्वकारेण आनीतान् अध्यादेशान् द्वाभ्यामेव सदनाभ्याम् तत्कालमेव पारितीकर्तुम् सहमतिर्धृतास्ति। नेकपायमाले दलस्य संसदीय दलस्य कार्यालये ह्य उपविष्टे उपवेशे त्रिदिवसानन्तरम् एव द्वाभ्याम् सदनाभ्याम् अध्यादेशान् कार्यसूचौ संस्थाप्य पारितीकर्तुम् विमृष्टमिति नेपाली कांग्रेस दलस्य प्रमुख सचेतक पदीय श्याम घिमिरे अज्ञापयत्। प्रतिपक्षेण पञ्चसु अध्यादेशेषु सहमति व्यक्तास्तित्यतः भूमि सम्बद्धम् अध्यादेशमपि प्रतिस्थापन विधेयकस्य माध्यमेन संयोज्य पारितीकर्तुम् शक्यते इति विषये विमृष्टम् इति घिमिरे असूचयत्। उपवेशे नेकपायमाले नेपाली कांग्रेस जसपा जसपा नेपाल जनमत दलम चेति दलानां प्रमुख सचेतक पदीयानां सहभागिता आसीत्। राष्ट्रपतिना रामचन्द्र पौडेलेन कीर्तिपुरवर्तिनम् दहन चिकित्सालयं प्राप्य उपचाररतस्य उपप्रधानार्थ मन्त्रिणः विष्णुप्रसाद पौडेलस्य स्वास्थ्यावस्थायाः विषये जिज्ञासितम् वर्तते। राष्ट्रपतिः पौडेलः ह्य चिकित्सालयं प्राप्य मन्त्रिणः पौडेलस्य पोखरा महानगरपालिकायाः प्रमुखस्य धनराज आचार्यस्य स्वास्थ्यावस्थायाः विषये जिज्ञासितवान्। अत्रान्तरे गत शनिश्चरवासरे पोखरायाम् आयोजिते पञ्चविंशत्युत्तर द्विसहस्रतम ख्रीष्टाब्दस्य पोखरा भ्रमणवर्षस्य उद्घाटन समारोहे सम्भूतायाः विस्फोट घटनायाः अनुसन्धानाय अष्टसदस्यात्मिका समितिः संघटिता वर्तते। गृहमन्त्रिणा रमेश लेखकेन कास्की जनपदस्य जनपदाधिकारिणः भरतमणि पाण्डे इत्यस्य संयोजकत्वे अष्टसदस्या समितिः संघटिता वर्तते। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति लोकतन्त्रम् एव न्यायपूर्णस्य समाजस्य आधारशिला वर्तते। काष्ठमण्डपे ह्य आयोजिते कार्यक्रमे राष्ट्रपतिः पौडेलः अधिकारैः प्रत्येकं जनस्य मर्यादया स्वातन्त्रेण समानतया च जीवनस्य सुनिश्चितं भवतीति अवदत्। नेपाले लोकतन्त्रं प्रति जनतायाः समर्पणेन उत्सर्गेण च समाज निर्माणाय प्रेरणा प्रदत्ता अस्ति इति च राष्ट्रपतिः पौडेलः अवदत्। इति समाचारः।